ॐ शुक्लां भरतरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ सर्वेषां स्वागतम्। सो अद्यतनविषयः अस्ति चतुर्थीविभक्ति। प्रथमं चतुर्थीविभक्ति कुत्र उपयोगं कुर्मः इति पश्यामः। प्रथम अधिकतया अत्र ददाति दानक्रिया अस्ति चेत् तत्र चतुर्थीविभक्तिः भवति साधारणतया। दानक्रिया अपि च नमः इति अस्ति चेत् तत्र अपि चतुर्थीविभक्तिः भवति। ददाति अनन्तरं नमः अपि च आनयति। किमर्थम् आनयति? कस्मै आनयति? कस्मै दातुम् आनयति इति तादृश कं दातुम् आनयति तादर्थे तादर्थे चतुर्थी पुत्राय कुन्तम् आनयति। नमः प्रयोगे चतुर्थी, रोचते अपि चतुर्थी, क्रुध्यति ईर्ष्यति इति तादृश असमीचीनभावः अस्ति चेत् तत्रापि चतुर्थी भवति। किमर्थम्? किमर्थम् इति वदामः चेत् पठनार्थम् अथवा पठनाय। पठितुम् अपि सम्यक् एव, परन्तु साधारणतया पठनार्थं पठनाय इति भवति। पठितुमपि सम्यक् एव। कल्पते, कल्पते इत्युक्ते दैवसम्पत् मोक्षाय कल्पते, भक्तिः ज्ञानाय कल्पते, पठनं ज्ञानाय कल्पते। पूजां पूजां कुर्मः चेत् पूजा भक्त्यै कल्पते। पूजा अस्ति, पूजां कृत्वा कृत्वा भक्तिः उत्पद्यते इति एतादृशम् अस्ति। रूपाणि कानि इत्युक्ते पुल्लिङ्गे अकारान्त पुल्लिङ्गे अकारान्त नपुंसकलिङ्गे ज्ञानाय ज्ञानाभ्यां ज्ञानेभ्यः इति भवति। मध्ये आभ्यां केवलं मूलरूपं भ्यां मूलरूपं भ्यः इति न, किञ्चित् भिन्नरूपं भवति अकारान्त पुल्लिङ्गे अकारान्त नपुंसकलिङ्गे। अग्रे समानं मूलरूपं भ्यां मूलरूपं भ्यः, सर्वत्र तथा एव मूलरूपं भ्यां मूलरूपं भ्यः, पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा सर्वत्र पितृ एवं भवति। अस्तु, एकवचने पश्यामः। सो अत्र इकारान्त पुल्लिङ्ग अस्ति चेत् अये भवति, ई अस्ति चेत् ए, अये हरि हरये अये भवति, ई गच्छति अये हर अये भवति। गुरु उकार अस्ति चेत् व भवति, गुरु उ गच्छति अवे भवति, गुरवे। एवमेव पितृ ऋ अस्ति रे भवति, पित्रे पित्रे पितृ ऋ गच्छति रे भवति, पित्रे इति। स्त्रीलिङ्गे किं भवति? इकारान्तपदम् अस्ति चेत् विकल्पः पुल्लिङ्गवत् विकल्पः अस्ति, हरये इव मतये, अपि च रमायै इव मत् यै, ई गच्छति यै भवति। एवमेव गौरी गौर् यै भवति। धेनु ऊ अस्ति चेत् पुल्लिङ्गवत् अवे धेनवे। अपि च यथा इकारः अस्ति चेत् यै अस्ति अत्र वै भवति, धेन् वै इति भवति, वद् वै, वधू अपि वद् वै, धेनु धेनु अपि धेन् वै। सो अतः रूपं दृष्ट्वा दीर्घवधूः वा अथवा धेनु वा इति न ज्ञातुं शक्नुमः. अत्रापि मत्यै इति वदामः चेत् मतीव गौरी इव अथवा मतीव इति न ज्ञातुं शक्नुमः. परन्तु द्विवचनं बहुवचनं दृष्ट्वा मति गौरी इति ज्ञातुं शक्नुमः. मातृभ्यां पितृभ्यां समानरूपं ऋकारान्त. इदानीं सर्वनामपदं तस्मै ताभ्यां तेभ्यः. तस्मै श्रीगुरवे नमः. तस्मै जानीमः चेत् कस्मै, एतस्मै, सर्वस्मै इति समानं भवति. ताभ्यां तेभ्यः पुल्लिङ्गे अकारान्त इव. ताभ्यां तेभ्यः स्त्रीलिङ्गे तस्यै, रमायै इति अस्ति खलु तादृशं तस्यै. ताभ्यां ताभ्यः इति भवति. काभ्यां काभ्यः. भवत् शब्दः किञ्चित् भिन्नं भवति. भवते सर्वत्र चतुर्थीविभक्ति ए भवति. अग्रे वयं पश्यामः हलन्तशब्द अग्रिमपुस्तके भवति. हलन्तशब्द अस्ति भवत् शब्द भवते भवद्भ्यां. तकारः दकारं भवति. किमर्थम् इत्युक्ते अग्रे भ अस्ति. मृदुव्यञ्जनं भवति. कर्कषव्यञ्जनं मृदुव्यञ्जनं भवति. भवद्भ्यां भवद्भ्यः स्त्रीलिङ्गे भवती इति गौरी इव. गौर्यै भवत्यै. गौरीभ्यां भवतीभ्यां. भवतीभ्यः गौरीभ्यः इति. अग्रे एतत् इदं मास्तु. इदानीम् अस्मत् शब्द मह्यं. मह्यं पर्याप्तं. मे नौ नः न आवश्यकम्. इदानीं मह्यम् आवाभ्यां अस्मभ्यं. तुभ्यं युवाभ्यां युष्मभ्यम् इति अस्ति. युष्मद् युष्मभ्यम्. अस्मद् अस्मभ्यम्. आवाभ्यां युवाभ्यां. मह्यं तुभ्यम् इति. अस्तु, वयम् एतत्
गुरुभ्यो नमः. यो कम्स् बिकास् आफ़् सन्धिकार्यम्.
आम्, सन्धिकार्यं. गुरुभ्यो नमः. So I will do the visarga sandhi another day, astuva, because very complicated.
Okay, baby.
Yeah, gurubhyo namaha, anye namo namaha iti vadamakale, namaha namaha namo namaha iti bhavati. Namo namaha, yeah. Astu. So atra kalpate, we are up to here kalo, etat pariyantam kritavantaha. Amva? इति
चिन्तयतु.
अस्तु अस्तु, उत्तमं. सो अत्र कल्पते इत्यस्य प्रयोगे कस्मै कल्पते, तस्य चतुर्थीविभक्तिः भवति. लैक् वाट् डस् इट् ट्रान्स्फार्म् इन् टु इति. कस्मै कल्पते इति भवति. उदाहरणम् आसूरि सम्पत् बन्धनाय कल्पते. आसूरि इत्युक्ते अधिकम् आवश्यकम्, अधिकम् आवश्यकम् इति तादृश खलु. आसूरि बन्धनाय कल्पते. काम क्रोधाय कल्पते. कथं कामः कामक्रोधाय कल्पते इति वदामः इत्युक्ते, वयं किमपि इच्छामः तत् न प्राप्नुमः चेत् दुःखं भवति. दुःखं कोपाय कल्पते. दुःखं भवति प्रथमम्, अनन्तरं दुःखं कोपाय परिवर्तनं भवति. सो अतः कामकोपाय कल्पते. स्वधर्माचरणं कीर्तये कल्पते. स्वधर्मं कुर्मः चेत् कीर्तये कल्पते. परधर्माचरणं पापाय कल्पते. एवमेवं भवति. सो अत्र शब्दान् दृष्ट्वा किं कस्मै कल्पते इति यतोदाहरणं वदत. अस्तु, सो प्रथम उदाहरणम् अस्ति ध्यानं शान्तये कल्पते. शान्ति शान्तये, इकारान्तस्त्रीलिङ्गपदं. शान्तये कल्पते इति उदाहरणम् अस्ति. श्रीनिवास महोदय करोति वा अत्र?
आम् भगिनि. ध्यानं शान्त्यै कल्पते. that we are done. The next one is adhyayanam vikasah. Adhyayanam vikasaya kalpate.
Samyak. Adhyayanam vikasaya kalpate. Jnana vikasa. Manaha vikasa. Vikasam bhavati. Vikasaya kalpate. Astu. Agre amba.
Vishaya dhyanam vinashaya kalpate.
Vishaya dhyanam vinashaya kalpate. Astu. Agre. Jayashri bhagini.
Mananam buddhi vardhanam vardhanaya kalpate.
Buddhi vardhanaya kalpate. Sulabhaya vakalo. Astu. Lata bhagini.
Bhagini, parikshamaha vijayaya kalpate.
Vijayaya kalpate. Astu. Sandhya bhagini, mute madhya asmiti uktavati. Sharada bhagini, swagatam sarve. Sarve.
Tirotsahaha pragatyai atava pragataye kalpate.
Uttama. Sthira utsahaha. Samya. Pragatiye atava pragatiye kalpate. Astu. Anya nasti. Srinivas Mahadev. Punaha.
Okay. Gita amrutam amrutvamaya kalpate. Amrutvaya kalpate.
Amrutvaya kalpate. Gita
amrutvaya kalpate. Amrutvaya kalpate.
Amrutvaya kalpate. Astu. Ya amba.
Paropakara punyaya kalpate.
Punyaya kalpate. Paropakaram kurmaha chet punyam sampadayamaha. Punyaya kalpate. Jatiti na prapnumaha parantu kalantare punyam prapnumaha iti. Jayashri bhagini.
Tamogunaha bandhaya kalpate.
Tamogunaha bandhaya kalpate. Itike jatiti na प्राप्नुमः एतत् सर्वं झटिति न प्राप्नुमः कालान्तरे प्राप्नुमः इत्येव कल्पते इति अस्तु प्रश्नः अस्ति वा कल्पते इत्युक्ते अस्तु नास्ति चेत् एतेषु श्लोकेषु चतुर्थीविभक्तिरूपाणि अवलोकत कृष्णाय गोविन्दाय देवकी नन्दनाय नन्दगोपकुमाराय गोविन्दाय नमो नमः सो अत्र नमः नमः नमो नमः अभवत् सो यत्र नमः अस्ति तत्र चतुर्थीविभक्तिः भवति साधारणतया श्लोके चतुर्थीविभक्ति अथवा द्वितीया विभक्ति नमामि नमस्करोमि इति तादृशमस्ति चेत् द्वितीया विभक्ति भवति सर्वत्र श्लोके चतुर्थी अथवा द्वितीया विभक्तिं द्रष्टुं शक्नुमः वयं प्रपन्न पारिजाताय स्तोत्र वैत्रैक पाणि पाणये पाणि अस्ति पाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे इदं ते नातपस्काय न अभक्ताय सो अत्र न आतपकस् न आतपस्काय न अतपस्काय अतपस्काय आतपन न अतपस्काय न अभक्ताय कदाचन न च अशुषवे शुषुः शुषवे वाच्यं न च मां यो अभ्यसूयति सो अत्र अर्थं पश्यामः वा कृष्णाय वासुदेवाय कृष्णाय वासुदेवाय इत्युक्ते वसुदेवस्य पुत्राय, देवकीनन्दनाय देवकीनन्दनपुत्राय, नन्दगोपकुमाराय, अत्र गोपकुल अस्ति इत्युक्ते गोपालकुलं, तस्य कुमारः नन्दगोप अथवा गोविन्दाय, गोविन्दाय नमो नमः. प्रपन्नपारिशेषणीयं
भगिनि
किम्?
दिस् आल् कम्स् इन् द विशेषण विशेष्यम्.
हा, विशेषणविशेषमेव. हा, वासुदेव अत्र वासुदेवः इत्युक्ते वसुदेवस्य पुत्रः वासुदेवः. एवम् एवम् एवं भवति. गोविन्द गोविन्दाय केवलं विशेषविशेषेण परन्तु सर्वत्र चतुर्थी विभक्ति एव.
गीता मृतदुहे नमः फर् विच् वर्ड् इस् मृतदुहे फोर्थ् चतुर्थी विभक्ति भगिनि?
सो अत्र पश्यामः. प्रथमं प्रपन्नपारिजाताय. प्रपन्न इत्युक्ते यः आश्रयं स्वीकरोति तस्य इच्छानुसारं सर्वं ददाति. प्रपन्न पारिजात पारिजाताय इत्युक्ते लैक् कामधेनु इव, इच्छा अस्ति चेत् तत् पूरयति. प्रपन्न यः पूरयति तस्मै इति. प्रपन्न पारिजाताय तोत्र वैत्रैकपाणये. तोत्र वेत्रैक. वेत्रैक इत्युक्ते दण्डं स्वीकृत्य गोपाल, तादृशपाणि अस्ति, हस्ते अस्ति दण्डं. पाणये यः प्रपन्नपारिजाताय, यः इच्छां सर्वं पूरयति, यस्य हस्ते दण्डः अस्ति तस्मै ज्ञानमुद्राय, ज्ञानमुद्रं दर्शयति कृष्णाय गीता अमृतदुहे. सो अत्र गीतातः अमृतं दुहे इत्युक्ते एक्स्ट्राक्ट् करोति खलु तस्मै इति. गीता अमृत दुहः दुहे नमः इति. सो अत्र उदाहरणार्थं भवत् शब्दः अस्ति चेत् भवते इति वदामः खलु, तादृश हलन्तपदम् एतत् दुहे.
धन्यवादः भगिनि.
अस्तु, दुहे. अस्तु, अग्रिमश्लोक अस्ति. परित्राणाय साधूनां. साधूनां परित्राणाय. त्राणाय इत्युक्ते रक्षणाय. साधूनां रक्षणाय दुष्कृतां च विनाशाय. यः असमीचीनकार्यं करोति तस्य विनाशं भवति. विनाशाय, दुष्कृतां विनाशाय, धर्मसंस्थापनार्थाय. धर्म नास्ति चेत् पुनः संस्थापनं कर्तुं करणाय, धर्मसंस्थापनाय सम्भवामि युगे युगे. पुनः आगच्छामि पुनः पुनः युगे युगे. पुनः पुनः वारं वारम् अहम् आगच्छामि. वारं वारं न, युगं 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 युगे युगे आगच्छामि इति.
भगिनि,
आं भगिनि,
स्थापनार्थं वदामः वा इल स्थापनार्थाय
स्थापनार्थम् अहं वदामि ऐ मीन् अहं सम्भवामि स्थापनार्थाय अपि सम्यक् एव उदाहरणं पठनार्थाय पुस्तकम् आवश्यकं पठनार्थं पुस्तकम् आवश्यकम् एव अस्तु इदं ते न अतपस्काय इदं ते इत्युक्ते किम् सहतौ ते सो अत्र युष्मत् शब्दस्य तुभ्यं ते नमस्तेस्तु इति वदामः खलु नमस्ते सो अत्र नमः ते ऐ डु नमस्कारं टु यु त्वम् इति नमः ते सो अत्र ते इति तुभ्यम् इदं तुभ्यं न अतपस्काय न अभक्ताय कदाचन न च अशुश्रूषवे सो अत्र च अशुश्रूषवे वाच्यं न च मां यः अत्र यो इति अस्ति यथा लैक् नमो नमः इति यो अत्र यः एव यः अभयसूच अभयसूयति इति श्लोकः अस्ति अत्र 18 अन्तिम अध्याये अस्ति एषः श्लोकः अस्तु अग्रे गच्छामः अव्ययानि अव्ययानि इत्युक्ते किम्
Which doesn't have
vibhaktis or who doesn't change vibhakti roopam lingam tadrisham nasti so atah atra nama padam eva kriya padam nasti nama padam eva so atra kim vadami padam iti asti chet kevala dvivida padani eva एकम् अस्ति नामपदम् अन्यत् एकम् अस्ति क्रियापदम् अन्यपदं नास्ति सो अत्र वाक्यम् इति डेफिनेशन् परिभाषा अस्ति सुप् तिङन्तं पदं सुप् तिङन्तं पदम् एव वाक्यम् इति अस्ति चेत् एतादृशपदानि एव सन्ति अन्यपदानि नास्ति सो अतः अव्ययम् इति नामपदं नामपदस्य अन्ते अव्ययम् इति एकम् अस्ति अस्तु सो अव्ययम् इति परिवर्तनं न भवति एव लिङ्गं नास्ति अलिङ्गम् अस्ति सो अत्र लिङ्गं नास्ति अलिङ्गं विभक्ति नास्ति अविभक्ति इति सो अत्र अन्धाय अन् अन्धाय देहि अन्धाय अपि देहि अनन्धाय सो अत्र अस्तु कोऽपि पठति वा जयश्री भगिनी खलु इदानीम्
आं भगिनि एतां कथां सावधानतया पठथ पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत् तस्य सुवर्चला नाम गुणवती कन्यका आसीत् सुवर्चला यदा प्राप्तवयस्का जाता तदा देवलः पुत्रीं कस्मै ददामि इति चिन्ताकुलः अभवत् तदा सुवर्चला एव पितरम् उक्तवती पितः माम् अध्याय अनन्धाय देहि इति तत् श्रुत्वा देवलः अवदत् पुत्री किमर्थं उन्मत्ता इव वदसि इति सुवर्चला अवदत् पितः नाहम् उन्मत्ता इव ददामि सत्यमेव वदामि भवान् एभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु अहमेव तेषु योग्यं चिनोमि इति
सम्यक् भगिनि धन्यवादः सो अत्र पुरा इति अस्ति चेत् तत् अव्ययं प्रातः अव्ययं सायम् इति अव्ययं परन्तु पुरातनकाले काले तादृशम् अस्ति चेत् अव्ययं नास्ति सो यदा तदा एव इति श्रुत्वा त्वान्तपदं ल्यबन्तं तुमुनन्तम् इव इति दातुं सो अत्र तुमुनन्तं त्वान्तम् अत्र तत्र एतादृशपदानि अव्ययानि अवगच्छन्ति खलु कथाम् अस्तु प्रश्नः नास्ति चेत्
अन्धाय मीन्स् ब्लैण्ड् शिशु मीनिङ्ग्
ब्लैण्ड् ब्लैण्ड् अन्धाय अन् अन्धाय
ब्लैण्ड् बट् नाट् ब्लैण्ड्
नो नो ब्लैण्ड् एण्ड् ब्लैण्ड् सम्थिङ्ग् लैक् दट् सो अत्र प्रहेलिका दिस् इस् लैक् अ रिडल् माम् अन्धाय अनन्धाय देहि गिव् मी टु अ ब्लैण्ड् एण्ड् वन् हू केन् सी इति सो अत्र प्राप्तवयस्का प्राप्तवयस्का इत्युक्ते शी केम् आफ् एज् इति प्राप्तवयस्का जाता सुन्दरं खलु बहु सुन्दरं सुवर्चला नाम गुणवती कन्यका आसीत् सो अत्र गुणवती इति स्त्रीलिङ्गे अस्ति पुल्लिङ्गे कथं भवति गुणवान् गुणवान् इति भवति यस्य गुणः अस्ति सः गुणवान् यस्य यस्मिन् वा सो दट् इस् हौ वि से यस्य यस्मिन् वा गुणः अस्ति सः गुणवान् यस्याः यस्यां वा गुणः अस्ति सा गुणवती गुणवान् साधारणतया वान् भवति अथवा मान् भवति बुद्धि बुद्धिमान् गुणगुणवान् अकार अन्ते अस्ति चेत् लैक् गुण धन धनवान् अ बुद्धि बुद्धिमान् कीर्ति कीर्तिमान् सो अत्र अ अस्ति चेत् वान् भवति अविहाय अन्य स्वरः अस्ति चेत् मान् भवति अस्तु सो अन्यपदमस्ति वा इति पश्यन् देवालयः सर्वशास्त्रकोविदः कोविदः इत्युक्ते पण्डितः इति दृढज्ञानम् अस्ति तादृश सर्वशास्त्र एकं शास्त्रं ज्ञातुमपि बहुकालः आवश्यकः परन्तु अत्र सर्वशास्त्रकोविदः धार्मिकः धर्मम् आचरति ऋषिः आसीत् सुवर्चला नाम गुणवती कन्यका साधारणतया कन्या इत्युक्ते स्त्री कन्यका इति का योजयामः चेत् लघुत्वं सूचयति उदाहरणार्थं बाल इत्युक्ते बाय् गर्ल् इति बालिका इत्युक्ते लघु बालिका बालकः लघुत्वं सूचयति क इति योजयामः चेत् प्राप्तवयस्का जाता इत्युक्ते बिकेम् इति अभवत् इति देवालये पुत्रीं कस्मै ददामि इति चिन्ता आकुलः भवति चिन्ता आकुलः इत्युक्ते तदेव चिन्तयति चिन्ताकुलः तदा सुवर्चला पितरम् उक्तवती सो एतादृशं पठामः चेत् अस्माकं मनसि दृढं भवति पितरं मातरं वन्दे मातरं अन्य उदाहरणं किं श्लोके वदामः खलु पठामि संस्कृतं नित्यं वदामि वन्दे संस्कृतमातरम् इति मातरं पितरं समानं भवति माम् अन्धाय अनन्दाय देहि इति सो अत्र चतुर्थी विभक्ति किमर्थं देहि देहि इत्युक्ते ददातु अन्य लोट्लकारः तत् श्रुत्वा देवालयः अवदत् पुत्री हे पुत्री किमर्थम् उन्मत्ता उन्मत्ता इत्युक्ते मनः सम्यक् नास्ति इति सो ड्रङ्क् इति वदामः खलु तादृशम् उन्मत्ता इति वदसि सुवर्चला अवदत् पितः सो अत्र पश्यतु सम्बोधनरूपं पिता इति न भवति पितः मातः दृढं भवति मनसि एतादृशं पठामः चेत् न अहं न अहं न अहम् उन्मत्ता इव वदामि सत्यमेव वदामि भवान् येभ्यः यः सः येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आगच्छतु स्वयंवरम् इव अहमेव तेषु सप्तमी तेषु योग्यं चिनोमि योग्यम् इत्युक्ते अप्राप्रियेट् योग्यं यः योग्यम् अस्ति योग्यः अस्ति तम् अहं चिनोमि इति वदति अस्तु अग्रे लता भगिनी वा
आं भगिनि त्वं यथा वदसि तथा इति उक्त्वा देवलः तादृशान् ऋषिकुमारान् आनेतुं सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान् देवलस्य प्रभावं सुवर्चलायाः ख्यातिं च श्रुत्वा बहवः ऋषिकुमाराः तां परिणेतुम् आगताः देवलः तान् सर्वान् विधिवत् सम्पूज्य पुत्रीम् अवदत् पुत्री एतेषु योग्यं वरय तस्मै ऋषिकुमाराय त्वां दास्यामि इति
सम्यक् भगिनि सो अत्रापि यथा तथा त्वान्तम् उक्त्वा तुमुनन्तम् आनेतुं श्रुत्वा च परिणेतुं सम्पूज्य ल्यवन्तम् इति एतादृशानि पदानि अव्ययानि इति त्वं यथा वदसि वदसि तथा देवलः तादृशान् ऋषिकुमारान् सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान् अस्तु प्रश्नः अस्ति वा
भगिनि विधिवत् सम्पूज्य अर्थं किं भगिनि
सो अत्र यदा यः कोऽपि गृहम् आगच्छति तस्य सो अन्तः आगमनात् पूर्वं किं कुर्मः विधि अस्ति तस्य पादप्रक्षालनं करणीयम् हस्तप्रक्षालनम् इति विधि क्रमः अस्ति क्रमवत् इति क्रमवत् किम् अस्पकष्टम् विधिवत् सम्पूज्य अनन्तरं पूज्य लैक् आनेतुम् इति अस्ति चेत् कार्यं आरम्भः अपि न अभवत् इति खलु परिणेतुम् आगताः इति इत्युक्ते परिणयः न अभवत् श्रुत्वा इति वदामः चेत् अभवत् सो अत्र सम्पूज्य अभवत् कार्यं पूजनकार्यम् अभवत् पुत्री एतेषु योग्यं वरय वरय इत्युक्ते चिनोतु चिनु इति चिनुत तस्मै ऋषिकुमाराय त्वां दास्यामि इति सो प्रश्नः अस्ति वा न इति चिन्तयामि अस्तु शारदा भगिनी
सुवर्चला
तान् दृष्ट्वा उक्तवती, भवत्सु यः अन्धः अस्ति अनन्दः अस्ति तस्मै पिता मां दास्यति इति. ऋषिकुमारः तस्याः वचनं श्रुत्वा विस्मिताः जाताः. ततः सर्वे परस्परं मुखं दृष्ट्वा असन्तोषेन देवलं कटुवचनैः निन्दित्वा स्वस्थानाय गतवन्तः. ततः सुवर्चला सन्तोषेन पितृगृहे एव आसीत्.
अवगच्छन्ति खलु? सा उक्तवती अत्र यः अन्धः अस्ति इत्युक्ते यः न द्रष्टुं शक्नोति अपि च द्रष्टुमपि शक्नोति अनन्दः अस्ति तस्मै मम पिता दास्यति मां दास्यति इति. ते विस्मिताः इति ते किम् एतत् अहं न अवगच्छामि इति आश्चर्येण आश्चर्याः जाताः. सो अतः ते परस्परं मुखं दृष्ट्वा असन्तोषेण कटुवचनैः निन्दित्वा देवलं कटुवचनैः निन्दित्वा स्वस्थानाय गतवन्तः. सो अत्र स्वस्थानम् अपि सम्यक् एव खलु? स्वस्थानं गतवन्तः, स्वस्थानाय गतवन्तः अपि सम्यक्. चतुर्थी विभक्ति तादृशं भवति, स्वस्थानाय गतवन्तः. कुत्र गतवन्तः? स्वस्थानं गतवन्तः, स्वस्थानाय गतवन्तः अपि सम्यक् एव. प्रश्नः वा? अस्तु, श्रीनिवास महोदय.
अतः कदाचित् श्वेतकेतु नाम न्यायविशारदः ऋषिकुमारः एतं वृत्तानं श्रुत्वा तत्र आगतवान् यत्र देवलस्य आश्रमः आसीत्. देवलः तं विधिवत् सम्पूज्य पुत्रीम् उक्तवान् उद्दालकस्य पुत्रः एष श्वेतकेतुः महाप्रज्ञः अस्ति एतं वरय इति सुवर्चला तत् श्रुत्वा कुपिता अभवत्. तदा श्वेतकेतुः ताम् अवदत् अहम् अन्धः अस्मि अनन्दः अपि अस्मि इति. तत् कथम् इति सुवर्चला अपृच्छत्
अपृच्छत्. अस्तु, उत्तमम्. सो अथ इत्युक्ते देन् इति. कदाचित् इत्युक्ते एकदा श्वेतकेतुः नाम न्यायविशारदः इत्युक्ते पण्डितः, सम्यक् जानाति न्यायं तर्कं सम्यक् जानाति इति. ऋषिकुमारः एतं वृत्तान्तम् इत्युक्ते विषयं श्रुत्वा तत्र आगतवान् यत्र देवालयस्य आश्रमः आसीत्. देवलः तमपि विधिवत् सम्पूज्य पुत्रीम् उक्तवान्. उद्दालकस्य पुत्रः श्वेतकेतुः एतं चिनोतु इति. एतत् श्रुत्वा सुवर्चला कुपिता अभवत्. किमर्थम् एतं वरय इति मम पिता वदति इति इत्येव कोपः तस्याः. तदा श्वेतकेतुः उक्तवान् अहम् अन्धः अस्मि अनन्दः अपि अस्मि इति. सुवर्चला तत् कथम् इत्युक्ते विवरणं करोतु इति. प्रश्नः अस्ति वा? नो चेत् अग्रे गच्छामः. अस्तु, चम्पा भगिनि.
आं भगिनि, द्वैतकेतुः अवदत् परमात्मनः कारणादेव जीवात्मा अहं पश्यामि, शृणोमि, जिग्रामि वा. परमात्मा एव चक्षुः, वस्तुतः सः एव पश्यति न अहम्. अतः अहम् अन्धः, किन्तु मम कदापि संशयः न भवति. अतः संशयाभावरूपं चक्षुः मम अस्ति. अतः अहम् अनन्दः. एवम् अहम् अन्धः, अनन्दः अपि इति.
अस्तु भगिनि, धन्यवादः.
धन्यवादः भगिनि.
अस्तु, श्वेतकेतः, श्वेतकेतुः उत्तरं ददाति. अवदत् परमात्मनः कारणात् एव, सो अत्र कारणात् एव, कारणादेव अभवत् सन्धिकार्यम् अत्र. जीवात्मा अहं पश्यामि इत्युक्ते अहं न पश्यामि, परमात्मा एव पश्यति, शृणोति, जिग्राति, सर्वं जिग्राति वा अपि अव्ययं, न अपि अव्ययं, किन्तु अपि, एवम्, एतानि पदानि अव्ययानि. परमात्मा एव चक्षुः, वस्तुतः सः एव पश्यति न अहम्. अतः अहम् अन्धः इति प्रथम बिन्दु. परन्तु अपि अव्ययं, किन्तु मम कदापि संशयः न भवति. अतः संशा अभावरूपम्, अभावरूपम् इत्युक्ते विदौट्, विना, संशयं विना अहं सर्वं पश्यामि. चक्षुः इत्युक्ते नेत्रं मम, संशयं विना नेत्रं मम अस्ति. अतः अहं सर्वं सम्यक्तया पश्यामि इत्युक्ते अहम् अनन्दः. अतः एवम् इत्युक्ते अतः एवम् अहम् अन्धः, अनन्दः अपि इति वदति. अस्तु, अग्रे अम्ब.
श्वेतकेतोः उत्तरेण सुवर्चला नितरां सन्तुष्टा अभवत्. सा पितरम् अवदत्, पितः, एषः मह्यं रोचते, मया एषः वृत्तः अस्ति, माम् एतस्मै ददातु इति. देवलः अपि अत्यन्तं सन्तोषेण श्वेतकेतवे सुवर्चलां दत्तवान्. सुवर्चला श्वेतकेतोः सहधर्मचरी अभवत्. तौ दम्पती दीर्घकालं यावत् सुखेन गार्हत्यम् आचरितवन्तौ. एतस्मिन् पाठे कानिचित् अव्ययानि वर्णचारे दर्शितानि सन्ति.
धन्यवादः. सो अत्र श्वेतकेतु, श्वेतकेतोः षष्टि विभक्ति, श्वेतकेतोः उत्तरेण, श्वेतकेतोः उत्तरेण नितराम् इत्युक्ते बहु सन्तुष्टा अभवत् सा. सा पितरां वदति, पितः, एषः मह्यं रोचते. सो मह्य रोचते इति अस्ति चेत् मह्यम्, अपि च कर्मपदं प्रथमा विभक्ति, एषः अथवा एतम् अहं बहु इच्छामि, एतम् अहं बहु इच्छामि, अथवा एषः मह्यं रोचते, मया एषः वृत्तः अस्ति. अर्थः कः? वृत्तः अस्ति, सो चोज़न् वरय इति उक्तवान् खलु, वरय, तस्य प्रत्यय वृत्तः. सो अतः कर्मणि प्रयोगे अस्ति, मया by me chosen iti. So choose him, varaya. So atra ta pratyaya asti vrittah, maya eshah vrittah. So atra bhutakalam suchayat, vrittah asti. Vrittah iti tinganta padam nasti, iti te kriya padam nasti. Angila bhashayam kriya padam. This is chosen. Kriyapadam. Parantu samskrita bhashayam pratyayah eva. Vritaha, vrita, vritam iti parivartanam bhavati. Parivartanam bhavati chet kriyapadam nasti. Vritaha asti, asti, asti eva kriyapadam. So ataha vritaha asti mam etasmai dadatu iti. Devalaha api atyantam, atyantam nitharam, atyantam santoshena shvetaketave suvarchalam dattavam. Suvarchala shvetaketoho saha dharma chari abhavat. Dharma charaha chari. Charaha chari. Saha dharma chari abhavat. Tau dampati. Dampati iti eka vachanam na dvi vachanam. Tau dampati. Angire bhashayam eka vachanam eva. One couple. Iti te ekaha eva iti. Tau dampati dhirga kalam yava sukena garhyastyam. Iti te grihastha karyam. So atra stha iti asti chet. Stha. Stana, sta iti asti chet, tatra asti iti. Udaharanam grihastha, grihe asti. Gramastha, grame asti. So atra garhyastyam. Itikte grihe sthitva, grihe kim kim kurmaha tat sarvam. Karoti iti acharita vantaha. Itikte household matters acharita vantau iti. Garhyastyam. Acharitavantav. Etasmin pate kanichit. Chitchana agre patamaha. Parantu puramapi patitavantav. Kalo chitchana iti asti kani. Kani avyayani santi kanichit. Kanichit avyayani varna aksharaihi. So atra varna. Rakta varna. Raktavarna aksharaihi darshitani santi. It is shown iti. Prashna hasti va hatra? No. Astu. Agre gachamah. Avadheyam. Astu. Jayashri Bhagini patati va avadheyam.
Aam Bhagini. Avadheyam. Vishu lingeshu, saptasu, vibhaktishu. Trishu vachaneshu chayat vikaram na prapnoti tat avyayam. Sadrusham.
Na sruyate bhagini.
She's not audible.
Kinchit uchaihi vaktum shaknoti va bhagini. Kinchit.
Okay.
Volume, you come closer and speak, Bhagini.
Sure.
Dhanyavad.
Trishu lingeshu saptasu vibhaktishu trishu vachaneshu chayat vikaram na prapnoti tat avyayam. Linga bedaha nahi, linga bedaha na vibhakti bedaha na asti iti.
Samya. So atre vikaram itikte parivartanam. Vikaram. Yat parivartanam na prapnoti. So atre lingam napum sakalingam. So atah eshu iti bhavati. Saptasu vibhaktishu. Vibhakti iti strilinga padam. So atah vibhaktishu. Ikaranta padam. Parantu sapta iti sankhya su bhavati. Tri iti sankhya api trishu. इति भवति. सो अत्र सङ्ख्याम् अपि एतादृशविभक्तिरूपं प्राप्नोति. त्रिषु सप्त सप्तसु त्रिषु वचनं वचनेषु. सो अत्र सङ्ख्यामपि एतादृशपद विभक्तिरूपं प्राप्नोति इति. अस्तु, यत् विकारं न प्राप्नोति तत् अव्ययम्. अस्तु, एतत् अपि पठतु भगिनि. सदृशं त्रिषु लिङ्गेषु
सदृशं त्रिषु लिङ्गेषु सर्वसु च विभक्तिषु वचनेषु च सर्वेषु यन्नव्येति तदव्ययम्. What's which makes you remember everything, I think.
Sadrisham itikte samana rupam. Sadrisham. It is the same iti. Sadrisham trishulingeshu. Trishulingeshu samana rupam asti. It looks the same. Sadrisham trishulingeshu sarvasu cha vibhaktishu. Sadrisham kutra... कुत्र सदृशम् अस्ति? त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु सर्वत्र यन्न इत्युक्ते यत् न यन्न अभवत् सन्धिकार्यम् अत्र. यन्न व्येति व्येति इत्युक्ते यत् न व्ययं न करोति. व्ययम् इत्युक्ते परिवर्तनं विकारम्. तद् अव्ययं तत् अव्ययं तदव्ययम् अभवत्. सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् इति. धन्यवादः भगिनि. अस्तु, धन्यवादः. लता भगिनी अग्रे. म्यूट् मध्ये अस्ति भगिनि. अस्तु, मालति भगिनी पठितुम् इच्छति वा?
ऐ लिसन् नौ, ऐ लिसन् नौ.
अस्तु, शारदा भगिनि.
यथा त्रिषु लिङ्गेषु कृष्णः अपि युध्यते, पृतना सेना अपि युध्यते, सैन्यम् अपि युध्यते.
सर्वत्र अपि अपि एव त्रिषु लिङ्गेषु तथा एव भवति. सेना स्त्रीलिङ्गे, पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गे. अस्तु,
सप्तसु विभक्तिषु कृष्णः अपि तुष्यति, कृष्णम् अपि पश्यतु भवान्, कृष्णेन सह अपि गच्छामि, कृष्णायापि देहि, कृष्णात् अपि स्वीकरोतु, कृष्णस्यापि अनुग्रहम् इच्छामि, कृष्णे अपि भक्तिः अस्तु.
सो अत्र सप्तसु विभक्तिषु समानरूपम्. सो अत्र प्रश्नः अस्ति चाट् मध्ये, व्येति इति. व्येति इत्युक्ते वा इति गुणसन्धि भवति. यन्न वा इति इत्युक्ते लिङ्गेषु विभक्तिषु वचनेषु वा इति. वा इति यन्न व्येति. सो अत्र सदृशं यत् न तत् अव्ययम् इति. अस्तु, अग्रे त्रिषु वचनेषु अपि समानमेव. योद्धः योद्धौ योद्धाः अपि युद्धं करोति, युद्धं कुरुतः युद्धं कुर्वन्ति इति. एतेषु सर्वेषु वाक्येषु अपि इत्यस्य कोऽपि विकारः नैव जातः. नैव इत्युक्ते स्ट्राङ्ग् नो, नेवर् इति. नैव जातः तत् तत् सर्वत्र अपि समानतया एव अस्ति अव्ययानि एवम् एवमेव तिष्ठ एवमेव इत्युक्ते यथा तत् पूर्वम् अस्ति तथा एव एवमेव इति यदा तदा यथा तथा यत्र तत्र इत्यादीनि नित्यसम्बन्धानि अव्ययानि नित्यसम्बन्धानि इत्युक्ते यदा इति लिखामः चेत् तदा अपि आवश्यकं यथा इति वदामः तथा अपि आवश्यकं यत्र इति वदामः तत्र अपि आवश्यकं परन्तु यदा तथा तत्र यत्र यथा यदा विना अपि वक्तुं शक्नुमः उदाहरणार्थं तदा सः आगतवान् तथा एव करोतु तत्र गच्छतु इति वदामः तन्नाम इति वदामः चेत् इत्युक्ते दट् इस् इति अर्थे इत्युक्ते यत्र यदा इत्यस्य प्रयोगः अस्ति तस्मिन् वाक्ये तदा इत्यस्यापि प्रयोगः भवति तन्नाम इत्युक्ते दट् मीन्स् इति अर्थे एतत् वयं जानीमः अतः झटिति अग्रे गन्तुं शक्नुमः अस्तु अग्रे शारदा अभवत् पुनः श्रीनिवासमहोदय
अस्तु
उदाहरणं
यदा ज्ञानसूर्यः उदेति तथा हृदयकमलं विकसति यदा तमः वर्धते तदा व्यामोहः भवति
व्यामोहः भवति इत्युक्ते किं यदा ज्ञानसूर्यः सूर्यः
यदा ज्ञानं भवति तत् समये हृदयकमलं विकसति ओडि हार्ट् ओपन्स् अप्
हार्ट् ओपन्स् अप् सो अत्र वयं उपमानम् इति वदामः खलु सिमिलि इति तादृशं साधारणतया यत् वदामः इत्युक्ते यदा सूर्यः उदयति आर् उदेति तदा कमलं विकसति खलु सूर्यः उदेति कमलं विकसति परन्तु अत्र किमस्ति ज्ञानम् इति सूर्यः सूर्यः इव ज्ञानम् अस्ति ज्ञानसूर्यः उदेति हृदयकमलं विकसति अस्तु अग्रे
वर्धते तदा मोहः भवति
मोहः भवति अस्तु तमोगुणः अस्ति चेत् मोहः अपि भवति व्यामोहः समानमिति अहं चिन्तयामि व्यामोहः अपि भवति अस्तु प्रथम उदाहरणं कृत्वा अग्रिमं करोतु महोदय यदा तदा
अर्जुनः विषिदति कृष्णः यदा अर्जुनः विषिदति तदा कृष्णः सन्वयति लोके धर्मस्य गलानि भवतः अवतारः यदा धर्मस्य ग्लानिः तथा भवतः अवतारः
भगवतः
तदा भगवतः अवतारः
अत्र वयं भवति भवति इति अपि योजयितुं शक्नुमः यदा धर्मस्य ग्लानिः भवति
यदा धर्मस्य ग्लानिः भवति तदा भगवतः अवतारः भवति
अवतारः भवति अस्तु सो पूर्वस्मिन् वाक्ये यदा अर्जुनः विषीदति इत्युक्ते बहु दुःखम् अनुभवति डिप्रेस्ड् बहु दुःखम् अनुभवति तदा कृष्णः सान्त्वयति इत्युक्ते शान्तिं जनयति कन्सोलेशन् शान्तिं जनयति. सान्त्ववचनं लैक् सूदिङ्ग् इति सान्त्ववचनं वदति इति. अस्तु, अग्रिममपि करोतु महोदय.
चित्तं विनियतं योगः उच्यते. यदा यदा चित्तं विनियतं भवति तथा भवति वदामि यदा चित्तं विनियतं तथा योगः उच्यते.
सम्यक् एव. आम् सम्यक् अस्तु. चम्पा भगिनी अग्रे. धन्यवादः महोदय.
द्रष्टा अनुपश्यति भगवद्भावं प्राप्नोति. यदा द्रष्टा अनुपश्यति तदा भगवद्भावं प्राप्नोति. मोहकलिलं नश्यति निर्वेदः भवति. यदा मोहकलिलं नश्यति तदा निर्वेदः भवति.
अस्तु अम्बर् अग्रे.
धन्यवादः भगिनि.
धन्यवादः भगिनि.
अधर्मस्य अभ्युत्थानं भगवतः आविर्भावः. यदा अधर्मस्य अभ्युत्थानं
भवति
तदा भगवतः आविर्भावः
भवति.
निश्चला बुद्धिः योगः भवति. यदि निश्चला बुद्धिः भवति तदा योगः भवति.
अस्तु, सो अत्र प्रश्नः अस्ति वा? अस्तु,
अभ्युत्थानम्
अभ्युत्थानम् इत्युक्ते अधिकं भवति. अभि उत्थानम् उत्थानम् इत्युक्ते अधस्तात् उपरि गच्छति, रैसिङ्ग् इति. यदा अधर्मः अधिकं भवति तदा भगवान् अवतरति. आविर्भावः इत्युक्ते मेनिफेस्टेशन् इति वदामः. अवतारं भवति भगवतः, षष्ठी भगवतः अवतारः भवति. अत्रापि भगवतः अवतारः भवति. धर्मस्य ग्लानि, धर्मस्य न्यूनं भवति अत्र, परन्तु अत्र अधर्मस्य अधिकं भवति. धन्यवादः. मोहकलिलं नश्यति. तदा निर्वेदः इत्युक्ते असत्यसन्तोषस्य नाशमपि भवति. मोहकलिलम् असत्यसन्तोषस्य नाशं यदा भवति तदा निर्वेदः भवति. वेदः इत्युक्ते किम्? अवगमनं खलु, ज्ञानं. तादृशनिर्वेदः भवति इति. इन्डिफरेन्स् इति वदामः. अन्यप्रश्नः अस्ति वा? अस्तु अग्रे. जयश्री भगिनि अग्रे.
आं भगिनि. कर्मसु अनुषज्यते योगारूढः भवति. यदा कर्मसु अनुषज्यते तदा योगारूढः भवति.
श्रूयते.
विषयेभ्यः निवर्तन्ते स्थितप्रज्ञः उच्यते. यदा इन्द्रियाणि विषयेभ्यः निवर्तन्ते तदा स्थितप्रज्ञः उच्यते.
अस्तु, अस्तु. कर्मसु अनुषज्यते इत्युक्ते किम्? यदा कर्मसु अनुषज्यते योगारूढः भवति. अनुषज्यते अब्सार्बिङ्ग् अनुषज्यते तत्र एव मनः भवति, क्लिङ्गिङ्ग् अटाचिङ्ग् लैक् दट् अनुषज्यते योग आरूढः भवति. पुनः वदतु महोदय. यदा
कर्मसु अनुसज्यते मीन्स् वन् हू अब्सार्ब्स् व्हाट यू कॉल जस्ट डस हिज वर्क.
डस इट वर्क. सम्यक्. कर्म एव कर्मसु एव मनः अस्ति.
फोकस्ड वर्क व्हाटएवर यू कॉल.
फले नास्ति इति अर्थे. फले नास्ति, केवलं कर्मसु एव. अस्तु, तादृश बुद्धि अस्ति चेत् योग आरूढः भवति. सो अत्र योग इत्युक्ते भगवन्तं योग. अस्तु, योगासनम् इति न. इन्द्रियाणि विषयेभ्यः निवर्तन्ते. निवर्तन्ते इत्युक्ते निवारणं खलु, विषयेभ्यः निवारणं. निवारणम् इत्युक्ते ततः नास्ति इति. इत्युक्ते समस्या अस्ति, समस्यायाः निवारणं कुर्मः इत्युक्ते त्यजामः, अपसरामः इति. रिमूविङ्ग्. सो अत्र इन्द्रियाणि विषयेभ्यः निवारणं कुर्मः चेत् स्थितप्रज्ञः उच्यते. स्थितप्रज्ञः इत्युक्ते स्टडि मैण्ड्. प्रज्ञः स्टडि मैण्ड् भवति. तदा स्टडि मैण्ड् भवति, उच्यते, प्राप्नुमः इति. अस्तु, अग्रे लता भगिनी वा?
आं भगिनि, आम्.
कामः
भवति, क्रोधः भवति. यदा कामः भवति तदा क्रोधः भवति.
क्रोधः भवति. सो अतः क्रोधः क्रोधाय कल्पते अपि वक्तुं शक्नुमः. अस्तु,
कामः क्रोधाय कल्पते. सङ्गः भवति, कामः भवति. यदा सङ्गः भवति तदा कामः भवति. सङ्गः अर्थ किं भगिनि?
सङ्गः इत्युक्ते अटाच्मेण्ट् इति. सङ्गः, अतः सत्सङ्गः सम्यक्, परन्तु सत् विना असत् इति तादृशमस्ति चेत् कामः भवति.
धन्यवादः.
धन्यवादः. अस्तु, शारदा भगिनी अग्रे.
अभयं भवति, दैवी सम्पत् भवति. यदा अभयं भवति तदा दैवी सम्पत् भवति.
उत्तमम्.
आत्मज्ञानं भवति, वैराग्यं भवति. यदा आत्मज्ञानं भवति तदा वैराग्यं भवति.
सम्यक्. अवगच्छन्ति खलु सर्वम्? आम् इति मन्ये. अस्तु, श्रीनिवास महोदय.
कामान् प्रजहाति स्थितप्रज्ञता. यदा कामान् प्रजहाति भवति तथा स्थितप्रज्ञाता भवति. सर्वं सर्वं नरवरं
नश्वरं
नश्वरं सॉरी यदा सर्वं नश्वरं तथा भयं कुतः
यदा सर्वं नश्वरं भवति तदा भयं कुतः भयं कुतः इत्युक्ते किमर्थम् अत्र कुतः इत्युक्ते किमर्थम् इति अर्थे भवति किमर्थम् इत्युक्ते सर्वं नाशमेव गच्छति खलु नाशं प्रति गच्छति अतः किमर्थं भयं नाशं भविष्यति इति भयं मास्तु किमर्थमिति सर्वं नाशमेव गच्छति नाशं प्रति एव गच्छति अस्तु एतं श्लोकं चम्पा भगिनी अग्रे श्लोकं पठ
भगिनि एतं श्लोकम् उच्चैः पठत यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानधर्मस्य तदात्मानं सृजाम्यहम् यदा यदा धर्मस्य ग्लानिः भवति अधर्मस्य च उत्कर्षः भवति तदा अहम् अवतारं करोमि इति श्रीकृष्णः वदति
वदति यदा यदा हि धर्मस्य ग्लानिर्भवति ग्लानिः भवति अत्र विसर्गसन्धि अस्ति रेपः भवति ग्लानिर् भवति भारत इत्युक्ते अर्जुन अभ्युत्थान अधर्मस्य अभ्युत्थानम् अधर्मस्य अभ्युत्थानं सो वयम् अत्र दृष्टवन्तः खलु अभ्युत्थानम् अभ्युत्थानम् अधर्मस्य अत्र मकार अकारः अस्ति धर्मस्य अभ्युत्थानं भवति तदा आत्मानम् आत्मानम् इत्युक्ते अहम् आत्मा आत्मानमपि सम्यक् एव परन्तु अत्र अन्य अर्थः अस्ति अहम् इति अहं सृजाम्यहं सृजामि अहम् इत्युक्ते अवतारम् अहम् अवतारं करोमि इति सृजामि अहं सृजाम्यहम् इति अभवत् प्रश्नः वा बहु प्रसिद्धश्लोकः खलु यदा यदा हि धर्मस्य ग्लानिर्भवति सृजाम्यहम् अस्तु अग्रे अम्ब यथा तथा
धन्यवादः
बहु धन्यवादः भगिनि
यदा कृष्णः वदति तथा अर्जुनः करोति यथा अश्वः धावति तथा गजः न धावति यथा वासांसि जीर्णानि भवति तथा शरीराणि जीर्णानि भवन्ति यथा देहे कौमाराज्यवस्था तथा आत्मनि
अनेकदेहावस्था सो अत्र अर्थं जानीमः यथा कृष्णः वदति तथा अर्जुनः करोति अवगतं तत्र नूतनविषयः नास्ति इति यथा अश्वः धावति तथा गजः न धावति इत्युक्ते तादृशम् इति शीघ्रं धावति शीघ्रं न धावति इति अस्ति यथा वासांसि जीर्णानि भवन्ति तथा शरीराणि जीर्णानि भवन्ति इत्युक्ते किं वासांसि इत्युक्ते किं
क्लोत्
वस्त्राणि जीर्णानि भवन्ति तथा शरीराणि अपि जीर्णानि भवन्ति यथा देहे कौमार अध्यवस्था कौमारेदि अवस्था भवति आत्मनि सप्तमी विभे आत्मनि अनेक देह अवस्था अहं न जानामि अग्रे पश्यामि अन्य कोऽपि जानन्ति वा देहे
कौमारं
आ
आत्मा डजंट चेंज दैट्स व्हाट इट वुड बी मीनिंग
आम सत्यम महोदय सत्यम सत्यम इदानीं स्मरामि आई रिमेंबर नाउ देहे देहे इत्युक्ते अस्माकं शरीरे कौमारतः अन्यव्यवस्था भवति तथा आत्मनि अनेक देह सो इत्युक्ते आत्मा अनेक देहे गच्छति अनेक अनेक देह अवस्था अवस्था भवति एकः एव आत्मा एतादृशम् अनेके अनेकानि देहेषु गच्छति अनेकेषु देहेषु गच्छति इति अस्तु सो अत्र एकस्मिन् देहे एतादृशं भवति परन्तु एकस्मिन् आत्मनि अनेकानि देहानि आगच्छति इति कम्पेरिसन् अत्र यथा तथा इति वदामः चेत् तोलनं भवति एतदेव मुख्यविषयः तोलनं कृत्वा यथा तथा इति वदामः परन्तु यदा तदा इति वदामः चेत् समयं तस्मिन्नेव समये इति यदा तदा यदा ज्ञानसूर्यः उदेति तदा तस्मिन्नेव समये इति समयं सूचयति यदा तदा यथा तथा इति तोलनं कृत्वा समानम् अस्ति इति अथवा समानं नास्ति इति वदामः तोलनम् अस्ति यथा तथा अस्तु अग्रे जयश्री भगिनि
आं भगिनि यथा रविः लोकं प्रकाशयति तथा क्षेत्री क्षेत्रं प्रकाशयति यथा अग्निः काष्ठानि भस्मात् कुरुते तथा ज्ञानिनः कर्माणि भस्मात् कुरुते भस्मसात् कुरुते काष्ठानि भस्मसात् कुरुते तथा ज्ञानाग्निः कर्माणि भस्मसात् कुरुते
सो अत्र प्रथमवाक्यं यथा रविः लोकं प्रकाशयति रविः इत्युक्ते सूर्यः यथा सूर्यः लोकं प्रकाशयति प्रकाशं सो अत्र प्रकाशयति इति वदामः चेत् णिच् प्रत्यय टु मेक् संथिङ्ग् प्रकाशं टु ब्रिङ्ग् प्रकाशं लैक् अहं करोमि अहं स्वयं करोमि अहं कारयामि अन्यं कार्यं कर्तुं प्रेरणां करोमि ऐ एम् मेकिङ्ग् सम्बडि डु इति सो अत्र लोकं प्रकाशयति सो अत्र प्रकाशयति इति वदामः चेत् अत्र स्वार्थे अपि निच् इत्युक्ते दीपः प्रकाशयति स्वयम् अपि प्रकाशयति अन्यान् अपि प्रकाशयति सो दिस् हेस् टु मीनिङ्ग्स् स्वयं प्रकाशयति अन्यम् अपि सो अत्र स्वार्थे निच् भवति अन्यार्थे अपि निच् प्रेरणार्थे अपि निच् भवति अवगच्छति वा
आम् भगिनि
सो अन्य उदाहरणं स्वार्थे अहं कार्यं करोमि अहं करोमि चोरयामि अहं चोरयामि स्वार्थे फार् मै यूस् चोरयामि अहम् अन्यान् चोरयतु इति प्रेरणां करोमि अहम् अन्यान् चोरयामि अन्यान् चोरयामि इत्युक्ते तत्र अपि अन्यान् प्रेरणां करोमि चोरयतु इति सो अत्र तादृश स्वार्थे निच् प्रेरणार्थे निच् अपि समानमस्ति तथा क्षेत्री क्षेत्रं प्रकाशयति अस्तु क्षेत्री इत्युक्ते रविः इव सूर्यः इव यः क्षेत्रे अस्ति इत्युक्ते राजा इति अनुमानं कुर्मः. राधा राजा क्षेत्रे अस्ति, तस्य नाम क्षेत्री, टैटल् इति वदामि. सः क्षेत्री, सः क्षेत्रं प्रकाशयति इति. अग्निः काष्ठानि भस्मात् कुरुते, भस्मं करोति इति. अग्निः काष्ठानि, काष्ठानि इत्युक्ते वुड्, फायरवुड् अस्तु. अग्निः फायरवुड् भस्मं करोति, भस्मात् करोति, भस्मात् कुरुते इति भस्मं करोति. एवम् एवमेव ज्ञान अग्निः, ज्ञानम् इति अग्निः, अथवा अग्निः इव ज्ञानम् अस्ति. ज्ञानम् इव अग्निः कर्माणि भस्मात् कुरुते, भस्मं करोति. कथं कर्माणि भस्मं करोति?
ज्ञानम् अस्ति चेत् सम्यक् धर्मं पालयामः.
तादृशमेव अस्तु. यथा राजा तथा प्रजा इत्युक्ते राजा धर्मं पालयति चेत् प्रजाः अपि धर्मं पालयन्ति. यथा कर्म तथा बुद्धिः अस्तु, अथवा यथा बुद्धिः तथा एव कर्म कुर्मः. यथा इच्छसि तथा कुरु. सो अत्र तोलनम् इति मुख्यविषयः. यथा तथा इति वदामः चेत् तत्र तोलनम् अस्ति. अस्तु, अग्रे का लता भगिनी?
आं भगिनि, आम् आम् आम्. यथा तथा अव्ययोः योजनेन एतेषां शब्दानां च सहायेन यथोदाहरणं वाक्यानि रचयत. उदाहरणं माता पिता, यथा माता मम माता गायति तथा मम पिता न गायति. राजा देशः सैनिकः, राजा देशः
अत्र राजा आदेशः, आदेशः.
ओ ओके. यदा राजा देशः तथा सैनिकः करोति.
यथा राजादेशः आदेशं करोति, राजादेशः
ददाति ददाति.
यदा राजादेशः अस्ति तथा सम्यक् भवति भगिनि. यदा राजादेशः अस्ति तथा सैनिकः करोति.
दुर्योधनः धृतराष्ट्रः, यथा दुर्योधनः सम्यक् नास्ति तदा धृतराष्ट्रः अपि उत्तमः नास्ति. यदा दुर्योधनः उत्तमः नास्ति तथा धृतराष्ट्रः अपि उत्तमः नास्ति.
तदपि अस्तु. अन्य
यथा दुर्योधनः इच्छति तथा धृतराष्ट्रः करोति.
करोति अस्तु अस्तु. तदेव मुख्यदोषः खलु महाभारते. यथा दुर्योधनः इच्छति तथा धृतराष्ट्रः न करोति.
दुर्योधनः doesn't want to be so bad to Pandavas, no bhagini?
No, Duryodhanaha wanted bad, kalu. Dhritarashtraha did not...
Sorry, Dhritarashtraha, sorry. His father did not want, sorry.
Did not want, but he did not stop Duryodhanaha. Yata Duryodhanaha icchati, tata eva Dhritarashtraha api karoti. Yadyapi saha na icchati.
Oh, he didn't stop, yeah.
अस्तु, अग्रे शारदा भगिनी भवति.
यथा हिरण्यकशिपुः क्रोधयति तथा प्रह्लादः न क्रोधयति.
क्रुध्यति
क्रुध्यति. यथा राजा अस्ति तथा प्रजाः सन्ति.
प्रजाः सन्ति. अस्तु, सम्यक्. अन्यवाक्यमस्ति वा? हिरण्यकशिपुः प्रह्लादः. नास्ति. अस्तु. सम्यक्. यथा हिरण्यकशिपुः वदति तथा प्रह्लादः न करोति. सम्यक्. अन्य न. अम्ब वक्तुमिच्छति वा किमपि? कशिपुः
वदति
न वदति. अस्तु, सम्यक्. न वदति. अस्तु. हिरण्यकशिपुः किं वदति? ॐ हिरण्यकशिपवे नमः इति वदतु इति. प्रह्लादः तथा न वदति. सम्यक्. यथा हिरण्यकशिपुः वदति तथा प्रह्लादः न वदति. अस्तु. रामः विभीषणः. अस्तु, अग्रे श्रीनिवासमहोदय. रामः विभीषणः.
यथा रामः चरति विभीषणः अनुसरति.
अनुसरति. उत्तमम् उत्तमम्. यथा रामः चरति सरति विभीषणः अपि अनुसरति. सम्यक् सम्यक्. अग्रे यथोदाहरणं वाक्यानि रचयत. यथा पूर्वं जनाः आसन् तथा इदानीं न सन्ति. उदाहरणम् एवम् अस्ति. अस्तु. अग्रे श्रीनिवास महोदय वदति वा न वा?
यथा माता पचति तथा पुत्री न पचति.
सम्यक्. इदानीं तथा न पचति. अस्तु. चम्पा भगिनी.
यथा अध्यापिका वदति तथा शिष्या अनुसरति.
अनुवदति. अग्रिममपि यथा वैद्यः वदति
तथा दर्दी अनुसरति.
यथा वैद्यः वदति तथा रोगी करोति. अस्तु. अम्ब यथा नरः करोति. नरः इत्युक्ते मनुष्यः.
यथा नरः करोति तथा
बालः न करोति. वानरः
नरः करोति.
वानरः अनुकरोति. कापि. वानरः अनुकरोति. नरः वानरः. सुधीरस्य कथा इति अस्ति खलु. सुधीरस्य कथा टोपिकां स्वीकरोति वानरः. यथा नरः करोति तथा वानरः अनुकरोति. अस्तु. यथा हिमालयः अस्ति तथा
मेरुपर्वतः अस्ति.
तथा विन्ध्याचलः नास्ति. अस्तु. अन्य अन्यपर्वतः नास्ति इति. अस्तु, जयश्री भगिनि. अस्तु अस्तु अस्तु. सो यथा सिंहः गर्जति, अन्य कोऽपि वदति. यथा सिंहः गर्जति
तथा
बिडालः न गर्जति. अन्य किं? तथा
गजः न गर्जति.
गजः न गर्जति. यथा नर्तकी नृत्यति तथा
कोऽपि न नृत्यति.
कोऽपि न नृत्यति. नृत्यति. अस्तु, अहं न नृत्यामि. अस्तु, अहमपि नर्तनं कर्तुम् इच्छामि. एतादृशम्. अस्तु, अग्रिमवर्गे अग्रे गच्छामः. एतत् पर्यन्तं वयं कृतवन्तः. अस्तु, शान्तिमात्रम् उक्त्वा समापयामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. धन्यवादः.
धन्यवादः भगिनी. पुनर्मिलामः.
धन्यवादः भगिनी.
धन्यवादः.
शुभदिनम्. धन्यवादः.